पृष्ठसङ्ख्या 380 वा काव्यस्वरूपम् इति वक्तव्यम्। पुरातनकक्षायां काव्यस्य प्रयोजनं किम् इति आरम्भे उक्तं, तदनन्तरं काव्यस्य कारणं किम् इत्युक्त्वा तत्र पुनः यद्यपि त्रयः अंशाः भवन्ति किन्तु त्रयाणां सङ्गमनेन मिलित्वा एकं कारणं काव्यस्य इति उक्तमस्ति। काव्यस्य कारणम् इति तर्हि काव्यं नाम किम् इति प्रश्नः भवति, काव्यस्य स्वरूपं किम् इति। प्रायशः अलङ्कारशास्त्रपरम्परायां सर्वेपि शास्त्रकाराः स्वचिन्तनानुसारं काव्यस्य एतद् लक्षणम् इति उक्तवन्तः। एकैकोपि एकविधं लक्षणं वदति, तत्र प्रसिद्धं मम्मटेन उक्तं काव्यलक्षणम् एतदस्ति, सः वदति एवम् अस्य कारणम् उक्त्वा स्वरूपम् आह, काव्यस्य स्वरूपं नाम काव्यलक्षणं सः वदति। तदोषौ शब्दार्थौ
सगुणौ
अनलङ्कृति पुनः क्वापि तदोषौ शब्दार्थौ इत्यस्ति। तत् अदोषौ शब्दार्थौ, तत् नाम किं काव्यं, काव्यं नाम किम् इति चेत् तत् अदोषौ शब्दार्थौ काव्यम्, शब्दार्थौ मिलित्वा काव्यं, केवलं शब्दः काव्यं न भवति, केवलम् अर्थः अपि काव्यं भवितुं नार्हति, शब्दार्थौ काव्यम्। काव्यम् इति एकवचनमस्ति, शब्दार्थौ इति बहु द्विवचनमस्ति, शब्दश्च अर्थश्च मिलित्वा शब्दार्थौ मिलित्वा काव्यं भवति, तर्हि शब्दार्थौ काव्यम् इत्युक्तं न भवति। तर्हि कीदृशौ शब्दार्थौ इति पुनः प्रश्नः भवति, शब्दार्थौ यौ कौचित् शब्दार्थौ काव्यं भवतः वा इति प्रश्नं पृच्छन्ति चेत् अदोषौ शब्दार्थौ इत्युक्ते शब्दे वा अर्थे वा दोषः न भवेत्, अदोषौ शब्दार्थौ तत्, तत् नाम किं काव्यम्, अदोषौ शब्दार्थौ काव्यम्। तर्हि तावदेव वा इति पृच्छति चेत् अन्यदपि विशेषणं योजयति, सगुणौ गुणसहितौ, सगुणौ गुणसहितौ, गुणसहितौ शब्दार्थौ काव्यम्। तर्हि अदोषौ शब्दार्थौ गुणसहितौ शब्दार्थावेव काव्यम् इत्युच्यते। अन्ये केचन वस्तुतः अलङ्कारसहितौ इति वदन्ति केचन, किन्तु अस्य आशयः अन्यथा अस्ति, अतः एषः वदति अनलङ्कृति। अनलङ्कृति इति द्विवचनम् एतद्, अलङ्कृतिः अलङ्कृती अलङ्कृतयः, अनलङ्कृति न अलङ्कृति अनलङ्कृति, अनलङ्कृति शब्दार्थौ नाम पुनः क्वापि इत्युक्ते अलङ्कारः भवेदेव इति नास्ति, अनलङ्कृति शब्दार्थौ अपि तथैव पुनः क्वापि इत्युक्तवान्, पुनः कुत्रचित् अनलङ्कृति शब्दार्थौ अपि काव्यम्। अलङ्कृति भवतः चेत् काव्यं वा न वा इति प्रश्नः एव नास्ति, अस्त्येव अनलङ्कृति अपि पुनः क्वापि काव्यं भवति। अतः काव्यस्य लक्षणं किम् इति पृच्छति चेत् अदोषौ शब्दार्थौ सगुणौ शब्दार्थौ अलङ्कृति शब्दार्थौ कदाचित् अनलङ्कृति अपि शब्दार्थौ काव्यम् इति काव्यस्य लक्षणं चिन्तनं भवति वा। अत्र अलङ्कारः भवेदेव इति किमपि नास्ति, स्फुटालङ्कारः कोऽपि नास्ति चेदपि तद् काव्यं भवितुम् अर्हति इति मम्मटस्य आशयः। तर्हि तदोषौ शब्दार्थौ सगुणौ अनलङ्कृति पुनः क्वापि इति काव्यस्य लक्षणं प्रसिद्धं। मम्मटोक्तं काव्यलक्षणं किम् इति पृच्छन्ति चेत् तदोषौ इति पूर्णं वदामश्चेत् समीचीनं, किन्तु अन्वयः कथम् इति चेत् अदोषौ शब्दार्थौ सगुणौ अनलङ्कृति पुनः क्वापि काव्यम्, काव्यं नाम किम् इत्युक्ते अनन्तरं काव्यस्य अन्तर्गतम् एवमस्ति। तर्हि इदानीम् अस्मिन् वाक्ये अदोषौ इत्युक्तमस्ति. दोषः नाम कः इति प्रश्नः भवति. दोषगुण अलङ्काराः भक्ष्यन्ते. अन्यत्र अदोषौ अगुणौ अनलङ्कृति इत्युक्तमस्ति. दोषः गुणः अलङ्कारः इत्यादयः सर्वे शब्दाः आगताः. कः दोषः कः गुणः इति पृच्छति चेत् दोषगुण अलङ्काराः वक्ष्यन्ते. अग्रिमे अध्याये दोषगुणालङ्काराः वक्ष्यन्ते क्वापि इत्यनेन एतदाह यत् सर्वत्र सालङ्कारौ क्वचित्तु स्फुट अलङ्कारविरहेऽपि न काव्यत्वहानिः इति. इत्युक्ते सालङ्कारौ इति अपेक्षितं नापेक्षितम् इति न, किन्तु क्वचित् स्फुटालङ्कारः नास्ति चेदपि तस्य काव्यत्वहानिः न भवति इत्युक्तम् अभवत्. तत् कुत्र इति प्रश्नः. तदर्थम् एकं पद्यमिच्छति सः नरिकतेशः वस्तुतः. यः कौमारः रस्त एव हि वरः
यः कौमारः रस्त एव हि वरः सा एव चैत्रक्षपाः
तेजोन्मीलितमालतीपुरभयः
तेजोन्मीलितमालतीपुरभयः
प्रौढाः कदम्बानिलाः
प्रौढाः कदम्बानिलाः
आचैवास्मि तथापि तत्र
ैवास्मि तथापि तत्र
सुरतव्यापारलीलाविधौ
सुरतव्यापारलीलाविधौ
रेवारोधसि वेतति तरुतले
रेवारोधसि वेतति तरुतले
चेतस्तमुत्कण्ठते
चेतस्तमुत्कण्ठते.
अलङ्कारशास्त्रे प्रसिद्धम् एतदेकम् उदाहरणम्. इति वैशिष्ट्यं नाम अस्य लेखनं काचित् लेखिका कृतवती, शीलाभट्टायिका इति काचित् आसीत्. तस्याः नाम्नि इदं पद्यं प्रसिद्धमस्ति. सा लिखितवती शीलाभट्टायिका इति नाम्ना कानिचित् पद्यानि तत्र तत्र लभ्यन्ते. तत्र अत्यन्तं प्रसिद्धम् एतदेकं पद्यम्. तत्रत्या नायिका सा वदति, सा वस्तुतः किम् अत्र विद्यमानः अर्थः वदामि, कदाचित् केनचित् तरुणेन सह सङ्गमं प्राप्य सुखम् अनुभूतवती. कदा कुत्र इति चेत् तदेव वदति अग्रे. रेवारोधसि वेदसि तरुतले, रेवानदी नाम नर्मदानद्याः तीरे. रेवा रोधसि रोधः तीर, रेवा रोधसि वेदसि तरुतले. वेतसं तरुः वेतस इत्युक्ते वृक्षः. वेतसि तरुतले तत्र सा वस्तुतः सुखम् अनुभूतवती केनचित् किं युवकेन सह. धर्मकर्मसंयोगवशात् इति वदन्ति किल, स एव तस्याः पतिः अभवत् अनन्तरं स एव पतिः लब्धः. इदानीं सा तद् स्मरन्ती अस्ति, अहमेव सः एव तत्सर्वं तदेव इति वदन्ती अस्ति. यः कौमारहरः स एव हि वरः, सः एव वरः लब्धः अस्ति यः कौमार्यं कृतवान् आसीत्. ताः एव चैत्रक्षपाः, चैत्रमासस्य रात्र्यः, क्षपा नाम रात्रिः. ताः एव चैत्रक्षपाः, चैत्रमासे आसीत् इदानीमपि चैत्रमासः अस्ति, चैत्रमासस्य ताः एव क्षपाः रात्रिः सन्ति. ते च उन्मीलितमालतीपुरभयः प्रौढाः कदम्बानिलाः. तत्र मालतीसुरभयः, मालतीपुष्पाणि, जातीपुष्पाणि, मालतीपुष्पाणि यानि सन्ति तानि उन्मीलितानि आसन्. ततः सुरभिः सुगन्धं स्वीकृत्य आगच्छन् वायुः अस्ति. स एव वायुः, बहुवचनप्रयोगः, ते एव वायवः. प्रौढाः कदम्बानिलाः, कदम्बः वृक्षविशेषः, भगिनी इति वदन्ति कदम्बवृक्षः इति. ततः किं वायुः वाति, स एव प्रौढाः कदम्बानिलाः, ते एव आगच्छन्ति. पूर्वं ये अनिलाः आसन् इदानीमपि ते एव कदम्बानिलाः. सा चैव अस्मि, अहमपि सा एव, सा च एव अहमस्मि. तथापि तत्र सुरतव्यापारलीलाविधौ, तत्र यः विधिः प्राप्तः आसीत् तत्र एव चेतः समुत्कण्ठते, मनः तद्विषये एव उत्कण्ठितं भवति. सर्वमपि तदेव, सः एव, अहमेव, ताः एव रात्रयः, तयोगसन्निवेशः, सर्वं तथैव अस्ति. तथापि चेतः तत्रैव उत्कण्ठितं भवति इति वदन्ति अस्ति. अत्र हि स्फुटः न कश्चित् अलङ्कारः. अत्र अयमेव अलङ्कारः इति वक्तुं शक्यते इति तथा अलङ्कारः नास्ति. अतः विभावना इत्येक अलङ्कारः अस्ति, कारणं विनापि कार्यं भवति इति वक्तुं शक्यते. तथापि स्फुटालङ्कारः इति कोऽपि नास्ति. अत्र हि स्फुटो न कश्चित् अलङ्कारः, रसस्य च प्राधान्यात् नालङ्कारः. अत्र रसस्यैव प्राधान्यम्, शृङ्गाररसस्य अत्यन्तं प्राधान्यम् अत्र अस्ति. यदि भवन्तः सालङ्कारौ शब्दार्थौ एव काव्यम् इति वदन्ति तर्हि एतत् पद्यं यत् अत्युत्तमं काव्यमिति प्रसिद्धमस्ति तद् काव्यमेव न भवति. अतः तस्य परिहारार्थम् अनलङ्कृति पुनः क्वापि इति विशेषणं कृतमस्ति वा. अग्रे एवं तर्हि काव्यस्य लक्षणं किम् इति उक्तं भवतां परीक्षादृष्ट्या मम्मटोक्तं काव्यलक्षणं विवृणुता इति भवितुम् अर्हति. काव्यलक्षणं किं, काव्यस्वरूपं किम् इति वदति तद्भेदान् क्रमेण आह. तर्हि काव्यस्य भेदाः के इति चेत् प्रायशः सर्वेपि आलङ्कारिकाः काव्यं त्रिधा विभजन्ति, उत्तमं काव्यं, मध्यमं काव्यं, अधमं काव्यम् इति. किन्तु पण्डितः यदि जगन्नाथः एकः अतिविशिष्टः, उत्तमोत्तमं काव्यम्, उत्तमं काव्यं, मध्यमं काव्यम्, अधमं काव्यम् इति चतुर्धा विभजति. सः त्रिधा विभागः प्रसिद्धः. तत्र उत्तमं काव्यं नाम किम् इति चेत् तद्भेदान् क्रमेण आह. प्रथमम् उत्तमम्, अनन्तरं मध्यमम्, अनन्तरम् अधमं, तद्भेदान् सः क्रमेण आह वदति. इदम् उत्तमम्,
इदम् उत्तमम्
अतिशयिनि व्यङ्ग्ये,
अतिशयिनि व्यङ्ग्ये
वाच्याध्वनिः बुधैः कथितः,
वाच्याध्वनिः बुधैः कथितः.
इदम् उत्तमं काव्यम्, इदम् उत्तमं काव्यम् इति कथितमस्ति. कैः? बुधैः कथितमस्ति. किमिति चेत् ध्वनिः उत्तमं काव्यम्. तच्च कीदृशम् इति चेत् वाच्या अतिशयिनि व्यङ्ग्ये सति. व्यङ्ग्यं वाच्यात् अतिशयितं भवेत्, तादृशः ध्वनिः एव
उत्तमं काव्यम्.
उत्तमं काव्यं नाम तस्मिन् काव्ये वाच्यः कश्चन अर्थः भवत्येव, ध्वन्यार्थमपि कश्चन ध्वन्यार्थः भवत्येव, सः ध्वन्यर्थः एव अत्यन्तं प्रधानम्. स एव अतिशयी. कस्मात् अतिशयी? वाच्या अतिशयी व्यङ्ग्यार्थः यत्र अस्ति तद् काव्यम् उत्तमं काव्यम् इति. अतिशयिनि व्यङ्ग्ये, कस्मात् वाच्या अतिशयिनि व्यङ्ग्ये ध्वनिः बुधैः
वाच्यार्थः अपि भवति,
अष्टान्तः भवति, अष्टान्तः सर्वत्रापि भवति. तस्य प्राधान्यम् इति प्रश्नः. प्राधान्यं तु यत्र व्यङ्ग्यार्थे दैव तत्र उत्तमं काव्यम्.
निःशेषच्युतचन्दनं स्तनतटं
निर्मृष्टरागोधरः,
निर्मृष्टरागोधरः
नेत्रे दूरमनञ्जने,
नेत्रे दूरमनञ्जने
पुलकिता तन्वीतवेयं तनुः,
पुलकिता तन्वीतवेयं तनुः
मिथ्यावादिनि दूति,
मिथ्यावादिनि दूति
बान्धवजनस्य ज्ञातपीडागमे,
बान्धवजनस्य ज्ञातपीडागमे
वापीं स्नातुमितो गतासि,
वापीं स्नातुमितो गतासि
न पुनः,
न पुनः
सत्याधमस्यान्तिकम्,
सत्याधमस्यान्तिकम्
नायकः आसीत्, नायकस्य नायिकायाः मध्ये कदाचित् कोपः उत्पन्नः आसीत्. सः बहुकालपर्यन्तं नायिकायाः गृहं नागतवान् एव. एषा किं कृतवती? एकां दूतीं प्रेषितवती, तत्समीपं गत्वा तम् आनयतु इति. एषा गत्वा तम् आनयतु इति प्रेषितवती, सा मध्ये वापीं गत्वा स्नानं कृत्वा आगतवती. अतः सा निक्षेपं कुर्वती अस्ति, वापीं गत्वा स्नानं कृत्वा आगतवती अस्ति इति वदन् अस्ति. कथं तस्य लक्षणं किम् इति चेत् निःशेषच्युतचन्दनं स्तनतटं वक्षस्थले चन्दनादिकं यद्लिप्तवती आसीत् तत्सर्वं चितमासीत् सर्वथा इदानीं गतमस्ति. निर्मृष्टरावोधरः निर्मृष्ट इति चिन्तनं निर्मृष्ट इत्यस्मिन् अधरे यः रागः लिप्तः आसीत् सः मृष्टः अस्ति इदानीं गतः अस्ति. निर्मृष्टरागः अस्ति स्नानकरणेन वापिं गत्वा स्नातं स्नानं कृतवती अस्ति अतः सः अधरः इदानीं वर्णरहितः जातः अस्ति. निर्मृष्टरागः अधरः जातः अस्ति. नेत्रे दूरम् अनञ्जने नेत्रे पूर्वम् अञ्जने आस्ताम् इदानीं तदञ्जनं सर्वं दूरं गतमस्ति. नेत्रे दूरम् अनञ्जने इत्युक्ते अञ्जनं न स्यात् तथा दूरं गतं. नेत्रे दूरमनञ्जने पुलकिता तन्वी तव इयं तनुः वाप्यां स्नानं कृत्वा आगतवती अतः शरीरम् इदानीं कम्पमानमस्ति. तव तनुः इदानीं कम्पते. पुलकिता तन्वी एवं मिथ्यावादिनी आगत्य पुनः असत्यं वदति गत्वा आगतवती इति असत्यं वदन्ती अस्ति. मिथ्यावादिनी असत्यं वदति अस्ति भूति. बान्धवजनस्य अज्ञातपीडागमे अहं बन्धुजनः अस्मि शीघ्रं गत्वा तं सर्वं निवेद्य आगच्छतु इति उक्तवती नो चेत् मम पीडा भवति इति मम पीडायाः अनुभवः एव न भवति भवत्याः. अतः बान्धवजनस्य पीडायाः अनुवदति अज्ञातुं न ज्ञायते भवति. अतः बान्धवजनस्य अज्ञातपीडागमे वापीं स्नातुम् इतः गता अस्ति. स्नानं कर्तुं वापीं गतवती अस्ति. न पुनः तस्याधमस्यान्तिकं तस्य समीपं गच्छतु इति प्रेषितवती न गतवती एव इति एषः वाच्यार्थः अस्ति. व्यङ्ग्यार्थं तु भवति दूती गत्वा तेन सह सुखम् अनुभूय आगतवती. अतः सर्वमपि एतत् सर्वमपि शेषं चन्दनं सनतकं निर्मृष्टरावोधरः एग्रे दूरमनन्दने शरीरे पुनस्तत्वम् एतत् सर्वं तत्रापि सङ्गच्छते. तद् कथं ज्ञायते इति चेत् अनन्तरमत्र तस्य अधमस्य अन्तिकम् इति शब्दस्य प्रयोगं कृतवती अस्ति. तस्य अधमस्य समीपं गत्वा आगतवती यदि सः सत्पुरुषः अस्ति किमपि नास्ति. अधमस्य इति शब्दप्रयोगं कृतवती अस्ति. अतः एषा गत्वा तेन सह रथं कृत्वा आगतवती इति द्वितीयः अर्थः स्फुरति. सः व्यङ्ग्यार्थः अस्ति तत्र संस्कारः. अतः वाच्यार्थः यः अस्ति तस्मात् भिन्नः एव अन्यः व्यङ्ग्यार्थः अत्र अस्ति. सः एव अतिशयी अस्ति. एवं यत्र वाच्यार्थात् व्यङ्ग्यार्थः अतिशयितः अस्ति तत्र उत्तमं कार्यम् तस्य विषये महती चर्चा अस्ति. एतस्य श्लोकस्य विषये संस्कृतसाहित्ये
अस्ति अलङ्कारः अस्ति
न जानामि अलङ्कारस्य विषये चिन्तनम् इति नास्ति. ध्वनिः अन्यः अर्थः अस्ति. जगन्नाथः साधयति स्नानेनापि एतत् सर्वं भवितुमर्हति स्नानमेव
अन्यद् चर्चा कथं भवति
सर्वे एतस्य श्लोकस्य विषये चर्चां
कृतवन्तः.
अधमशब्दः
अस्ति इति संस्कृतज्ञाः विनोदार्थम् एतत् पद्ये मध्ये मध्ये उदाहरन्ति. पापीं स्नातमितो गता शैत्यस्य किल पापीं पातमितो इदं सदन्तिकमेव रन्तुं गतासि. नो चेत् सा किमर्थं तर्जयति मिथ्यावादिनी दूती पञ्चजनस्य आज्ञपीडागमे तदन्तिकमेव रन्तुं गतासीति प्राधान्येन अधमपदेन विद्यते. तस्मात् कारणात् समीपमेव गतवती
इत्यतिशयी
व्यङ्ग्ये सति पाठ्या व्यङ्ग्ये अतिशयी सति तत्र ध्वनिः उदैः उत्तमं काव्यम् इति इदम् उत्तमं काव्यं तस्य उदाहरणम्. तर्हि अग्रे अस्ति मध्यमं काव्यं किम्? मध्यमं काव्यं अतादृशि गुणीभूतव्यङ्ग्यम् शब्दमान् नवतितमं पृष्ठम् नवति अतादृशि गुणीभूतव्यङ्ग्यम् अतादृशी नाम वाच्यागमतिः इत्युक्ते अतादृशि तादृशं न तादृशि न अतादृशि सति गुणीभूतव्यङ्ग्यं यदस्ति तत्र व्यङ्ग्ये अतादृशि सति इत्युक्ते व्यङ्ग्यार्थः कश्चन अस्ति किन्तु व्यङ्ग्यार्थः तादृशः नास्ति तादृशः नाम वाच्यात् अतिशये इति न अतादृशि व्यङ्ग्ये तद् गुणीभूतव्यङ्ग्यम् इत्युच्यते व्यङ्ग्यार्थः अस्ति किन्तु सः गुणीभूतः अस्ति सः एव मुख्यः न गुणीभूतव्यङ्ग्यम् इति उच्यते तदेव मध्यमम् तत् मध्यमं काव्यम् इत्युच्यते अतादृशि नाम वाच्यात् अनतिशायी वाच्यात् अतिशयी न अनतिशायी वाच्यात् अनतिशायी इत्युक्ते वाच्यार्थः भवति व्यङ्ग्यार्थः भवति उत्तमकाव्ये व्यङ्ग्यार्थस्य प्राधान्यं भवति मध्यमकाव्ये व्यङ्ग्यार्थः अस्ति गुणीभूतव्यङ्ग्यम् इति वाच्यार्थस्य प्राधान्यं यथा ग्रामतरुणं तरुण्याः
ग्रामतरुणं तरुण्याः
नवमञ्जुलमञ्जरीसनाथकरम्
नवमञ्जुलमञ्जरीसनाथकरम्
पश्यन्त्याः भवन्ति मुहुः
पश्यन्त्याः भवन्ति मुहुः
नितरां मलिना मुखच्छाया
नितरां मलिना मुखच्छाया
काचित् तरुणी अस्ति नायिका अस्ति पुरतः ग्रामतरुणः कश्चन आगतवान् अस्ति ग्रामतरुणं सा पश्यन्ती अस्ति ग्रामतरुणं पश्यन्त्याः सः ग्रामतरुणः कीदृशः अस्ति इति चेत् नवमञ्जुलमञ्जरीसनाथकरम् एकं मञ्जरीं गृहीतवान् अस्ति मञ्जरी पुष्पमञ्जरी पुष्पाणां पुष्पमञ्जरीं कृतवान् अस्ति सः नवमञ्जुलमञ्जरीसनाथकरं वञ्जुलमञ्जरी तत्र किं लताविशेषः तस्य किं मञ्जरी अस्ति तादृशं गृहीतवान् अस्ति वञ्जुलमञ्जरीसनाथकरं शिगुरुन्दम् इति लिखति पुष्पाणां वृक्षमपि भवितुम् अर्हति लता किं पल्लवानां वृक्षः भवितुम् अर्हति तद् हस्तेन सः गृहीतवान् अस्ति तं दृष्टवत्याः एतस्याः नायिकायाः मुखच्छाया नितरां मलिना पुरतः नायकः दृश्यते तस्य हस्ते एकं एका मञ्जरी अस्ति तं दृष्टवत्याः एतस्याः मुखच्छाया मुखस्य कान्तिः मलिना भवति एषः वाच्यार्थः युवकं पश्यति युवकं दृष्ट्वा उत्साहः भवेत् किल युवकं पश्यन्त्याः एतस्याः वदति किं भवति न ज्ञायते मुखच्छाया मलिना भवति इति वाच्यार्थः व्यङ्ग्यार्थः कः अस्ति अत्र इति चेत् अत्र मञ्जुललतागृहे दत्तसङ्केता नागता इति व्यङ्ग्यं गुणीभूतम् इत्युक्ते वञ्जुललता मञ्जरी गृहीतवती किल वञ्जुललतायाः स्थानं यदस्ति तत्र मेलनीयम् इति निर्णयः कृतः आसीत् अस्मिन् समये तत्र आवाभ्यां मेलनीयम् इति कोऽपि निर्णयः कृतः आसीत् किन्तु गुरुजनपादसन्द्र्यं गुरवः पश्यन्ति स्म इति कारणभाषमिति गुरुजनपादसन्द्र्यवशात् सा तत्र नरता मया आगन्तव्यमासीत् किन्तु गन्तुं न शक्ता इति सा चिन्तयन्ति अस्ति दत्तसङ्केता अपि न आगता इति व्यङ्ग्यस्य गुणीभूतं तद् व्यङ्ग्यमस्ति दत्तसङ्केता नायिका तत्स्थानं प्रति न गतवती इति यः व्यङ्ग्यार्थः अस्ति तस्मात् व्यङ्ग्यार्थात् तरुणं दृष्टवत्याः तस्याः मुखकान्तिः क्षणशः मलिनीभूता इति वाच्यार्थः अस्ति किल सः वाच्यार्थः एव अतिशयचमत्कारी इति अत्रैव अधिकः चमत्कारः इति कथम् इति चेत् सर्वयाः प्रमाणम् एतेषां सर्वेषां तदेव प्रमाणम् अतः व्यङ्ग्यार्थः अस्ति व्यङ्ग्यार्थादपि वाच्यार्थ एव अत्र अतीव चमत्कारः अस्ति तस्मात् कारणात् गुणीभूतव्यङ्ग्यम् इत्यस्य एतद् उदाहरणमस्ति अतः इदं मध्यमं कार्यम् तदेव जगन्नाथः चेत् एतदर्थम् अतीवसुन्दरम् अन्यदेकम् उदाहरणं वर्तते पुनः कदाचित् वदा तत्र तु सम्यक् सम्यक् स्फुटं प्रतीयते व्यङ्ग्यार्थः कः वाच्यार्थः कः वाच्यार्थे एव कथं चमत्कारः इत्यपि सम्यक् ज्ञायते पुनः कदाचित् वदति
अस्मिन्नेव काव्ये सः वदति
तस्य काव्यमस्ति काव्ये काव्यविभागं यदा करोति मध्यमकाव्यस्य लक्षणमस्ति सः वदति तर्हि तदपेक्षया वाच्यस्यैव चमत्कारित्वात् इदं किं मध्यमं काव्यम् अग्रे अस्ति अधमकाव्यम् अहम् अग्रिमकक्षायां करोमि न दृष्टवान् इत्युक्ते अर्थवैशिष्ट्यं किमपि नास्ति अस्मिन् पद्ये किन्तु तत्र शब्दानाम् अर्थः किञ्चित् किं वक्तुं किञ्चित् कठिन न दृष्टामि किन्तु केवलं एतत् केवलं तावदेव शृण्वन्तु शब्दचित्रं व्यङ्ग्यचित्रं शब्दाडम्बरः इति कथ्यते किल तादृशमेव भवति तद् अधमं काव्यम् इति उच्यते प्रथमं पद्यमस्ति केवलं शृण्वन्तु स्वच्छन्दोच्छलगच्छकच्छकुहरच्छादेतराम्बुच्छक मूर्च्छन्मोहमहर्षिहर्षविहितस्नानान्य गह्नायवः विद्यादुद्यदुदारदुरदी दीर्घदरिद्रद्रुम द्रोहोद्रेकमहो मेदुरमद मन्दासिनी मन्दता एवं श्रवणकृत्यं विकास्यः तथा इत्युक्ते शब्दवैशिष्ट्यं केवलम् अस्ति एतत् शब्दचित्रम् इति कथ्यते एवमेव अग्रे अर्थचित्रमपि अस्ति अग्रिमकक्षायां तस्य चित्रेण
गुरुवासरे कर्तुं शक्यते वा
शीघ्रं समापयामि
मङ्गलवासरः
दिनाङ्कः
चिन्ता नास्ति चिन्ता नास्ति एवं चेत्
मङ्गलवासरः